आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झा। अथ वार्ताः। बिहारराज्ये विधानसभानिर्वाचनस्य मतगणना अद्य प्रातः अष्टवादनात् समारप्स्यते। बिहारराज्यस्य अष्टत्रिंशत् जनपदानां षट्चत्वारिंशत् मतगणना केन्द्रेषु मतानां गणनं भविष्यति। विधानसभायाः 43,200 निर्वाचनक्षेत्राणां कृते द्वयोः चरणयोः निर्वाचनम् अभवत्। इलेक्ट्रॉनिक मतदान यंत्रेषु यत्र सर्वेषां 16,600+ प्रत्याशिनां निर्वाचन भाग्यं निहितमस्ति, ताने यंत्राणि कठोर सुरक्षायाः मध्ये सशक्त प्रकोष्ठेषु स्थापितानि सन्ति। आकाशवाण्या सह वार्तालापं कुर्वन् बिहारस्य मुख्य निर्वाचनाधिकारी विनोद सिंह गुंजियालः अवदत् यत् मतदाने उपयोजितानि ईवीएम यंत्राणि वीवीपीएटी यंत्राणि च त्रिस्तरीय सुरक्षा व्यवस्थायाः अन्तर्गतं सशक्त कक्षेषु स्थापितानि सन्ति। सर्वेषु गणना केन्द्रेषु विस्तृत सुरक्षा व्यवस्था प्रकल्पिता अस्ति। समुचित सुरक्षायै केन्द्रीय सशस्त्र आरक्षक बलानां राज्य आरक्षक बलानां च नियोजनमपि कृतमस्ति। श्री गुंजियालः प्रोक्तवान् यत् विधानसभा क्षेत्रेषु निर्वाचनार्थं नियुक्ताः पर्यवेक्षकाः अपि गणना प्रक्रियायाः निरीक्षणार्थं गणना केन्द्रेषु उपस्थिताः भविष्यन्ति इति। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्य चीता परियोजनायाः अन्तर्गतं भारते स्थानान्तरणार्थं बोत्स्वाना देशेन चित्र व्याघ्राणां प्रतीकात्मक हस्तान्तरणम् अपश्यत्। बोत्स्वाना देशस्य राष्ट्रपतिः दुमा बोको इत्येषः अपि अस्मिन् कार्यक्रमे उपस्थितः आसीत्। गृहीताः व्याघ्राः मूलरूपेण गांजी प्रदेशस्य आसन्, ये भारत बोत्स्वाना देशयोः विशेषज्ञैः सहकार्येण मोकोलोडी अभयारण्ये स्थिते संगोर्थ केन्द्रे विमोचिताः। बोत्स्वाना देशः भारते व्याघ्र जनसंख्यायाः पुनरुत्थानाय 8 व्याघ्राणां दानं करिष्यति। व्याघ्र परियोजना एका अद्वितीयोपक्रमः अस्ति यस्योद्देश्यं व्याघ्राणां दशकेभ्यः विलुप्तायाः अनन्तरं पुनः भारतं प्रति आनयनम् इत्यस्ति। 2020 सितम्बर मासे नामीबिया देशात् 8 व्याघ्राः कूनो राष्ट्रिय उद्याने स्थान्तरिताः। एतावता भारतं प्रति प्रेषिताः व्याघ्राः तेषां नूतन परिवेशे सम्यक् प्रकारेण सम्पृक्ताः सन्ति। उपराष्ट्रपतिः सीपी राधाकृष्णन् वर्यः अद्य नवदेहल्याः यशोभूमौ रोटरी तेजस विंग्स ऑफ चेंज इति कार्यक्रमस्य उद्घाटनं करिष्यति। रोटरी इति चतुर्लक्षाधिकानां व्यवसायिकानां समुदायनेतॄणां च वैश्विक जालम् अस्ति। भारते रोटरी संस्थायाः 10,000+2,00,000 7 केन्द्रेषु स्थिताः सन्ति, ये समुदायानां परिष्कारार्थं सेवा परियोजनासु सक्रियतया संलग्नाः सन्ति। त्रिदिवसीय कार्यक्रमे रोटरियन संस्थायाः 14,000+ निर्णायकाः प्रभावकाः अन्ये च अतिथयः भागं ग्रहीष्यन्ति इति सम्भाव्यते। प्रधानमन्त्री नरेन्द्र मोदी नवम्बर मासस्य 21 दिनांके तमिलनाडुराज्यस्य कोयम्बतूर नगरस्य यात्रायै गमिष्यति। अत्रावसरे सः तमिलनाडुराज्यस्य कृषक संघैः आयोजिते दक्षिण भारत प्राकृतिक कृषक शिखर सम्मेलनं सम्बोधयिष्यति। प्रधानमन्त्री दक्षिण राज्येभ्यः आगतैः जैविक कृषि विशेषज्ञैः 50 वैज्ञानिकैः सह अपि संवादं साधयिष्यति। अपि च क्रिकेट क्रीडायाम् अद्य प्रातः काले ईडन गार्डन्स इत्यत्र टेस्ट क्रीडायाः श्रृंखलायाः प्रथमायां स्पर्धायां भारत दक्षिण अफ्रीका देशयोर्मध्ये स्पर्धा भविष्यति। इयं स्पर्धा प्रातः 9:30 भविष्यति। इति वार्ताः।